श्रीगुरुभ्यो नमः हरि ओम् गणानां त्वा गणपतिगं हवामहे कविं कवीनामुपमश्रवस्तमम् ज्येष्ठराजं ब्रह्मणां ब्रह्मणस्पत आनः शृण्वन्नोतिभिः सीदसादनम् हरि ओम् शं नो मित्रः शं वरुणः शं नो भवत्वर्यमा शं न इन्द्रो बृहस्पतिः शं नो विष्णुरुक्रमः नमो ब्रह्मणे नमस्ते वायो त्वमेव प्रत्यक्षं ब्रह्मासि त्वमेव प्रत्यक्षं ब्रह्म वदिष्यामि रतं वदिष्यामि सत्यं वदिष्यामि तन्मामवतो तद्वक्तारमवतो अवतु माम् अवतु वक्तारम् ॐ शान्तिः 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 ॐ भद्रं कर्णेभिश्रुणुयाम देवाः भद्रं पश्येमाक्षवीर्यजत्रा स्थिरैरङ्गे सुष्ठुवागुंसस्तनोभिः व्यसेम देवहितं व्यरायुः स्वस्ति न इन्द्रो वृद्रश्रवाः स्वस्ति न पोषा विश्ववेदाः स्वस्ति नस्तार्क्षो अरिष्टनेमिः स्वस्ति नो बृहस्पतिर्दधातु ॐ नमो ब्रह्मणे नमो अस्त्वग्नये नमः पृथिव्यै नमवोषधिभ्यः नमो वाचे नमो वाचस्पतये नमो विष्णवे बृहते करोमि तच्छञोरावृणीमहे गातुम् यज्ञाय गातुम् यज्ञपतये दैवी स्वस्तिरस्तु नः स्वस्तिर्मानुषेभ्यः ओद्वम् जिगातु भेषजम् शन्नोऽस्तु द्विपदे शञ्चतुष्पदे ॐ शान्तिः 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 हरि ॐ
शुद्धस्फटिकसङ्काशम् त्रिनेत्रम् पञ्चवक्त्रकम् गङ्गाधरम् दशभुजम् सर्वाभरणभूषितम् नीलग्रीवम् शशाङ्काङ्कम् नागयज्ञोपवीतिनम् व्याघ्रचम्मोत्तरीयम् चावरेण्यमभयप्रदम् कमण्डुल्वक्षसूत्राभ्यामन्वितम् शूरपाणिनम् ज्वलन्तम् पिङ्गलजटाशिखामुद्योतकारिणम् अमृतेनाप्लुतम् हृष्टमुमादेहार्धदारिणम् दिव्यसिंहासनासीनम् दिव्यभोगसमन्वितम् दिग्देवतासमायुक्तम् सुरासुरनमस्कृतम् नित्यम् च शाश्वतम् शुद्धम् ध्रुवमक्षरमव्ययम् सर्वव्यापिनमीशानम् रुद्रम् वै विश्वरूपिणम् एवम् ध्यात्वा द्विजः सम्यक् ततो यजनमारभेत् अग्निकाण्डर्षिः अघोराघोरश्चेति बीजाशक्तयः चकारश्चेति कीलकम् श्रीरुद्रो देवता रुद्रप्रीत्यर्थे न्यासे विनियोगः ॐ प्रजनने ब्रह्मा तिष्ठतो पादयोर्विष्णुस्तिष्ठतो हस्तयोर्हरस्तिष्ठतो बाह्योरिन्द्रस्तिष्ठतो जठरेऽग्निस्तिष्ठतो हृदये शिवस्तिष्ठतो कण्ठे वसवस्तिष्ठन्तो वक्त्रे सरस्वती तिष्ठतो नासिकयोर्वायुस्तिष्ठतो नयनयोश्चन्द्रादित्यौ तिष्ठताम् कर्णयोरश्विनौ तिष्ठताम् ललाटे रुद्रास्तिष्ठन्तो मूर्ध्न्यादित्यास्तिष्ठन्तो शिरसि महादेवस्तिष्ठतो शिखायाम् वामदेवस्तिष्ठतो पृष्ठे पिनाके तिष्ठतो पुरतः शूरिणी तिष्ठतो पार्श्वयो शिवशङ्करौ तिष्ठताम् सर्वतो वायोस्तिष्ठतो ततो बहिः सर्वतोऽग्निर्ज्वालामाला परिवृतस्तिष्ठतो सर्वाङ्गेषु सर्वा देवता यथा यथा स्थानानि तिष्ठन्तो ॐ अग्निर्मे वाचि श्रितः वाग्रधये हृदयं मयि अहमृते अमृतं ब्रह्मणि वायुर्मे प्राणे श्रितः प्राणो हृदये हृदयं मयि अहमृते अमृतं ब्रह्मणि सूर्यो मे चक्षुषि श्रितः चक्षुर्हृदये हृदयं मयि अहमृते अमृतं ब्रह्मणि चन्द्रमा मे मनसि श्रितः मनो हृदये हृदयं मयि अहमृते अमृतं ब्रह्मणि दिशो मे श्रोत्रे श्रिताः श्रोत्रगुं हृदये हृदयं मयि अहमृते अमृतं ब्रह्मणि आपो मे रेतसि श्रिताः रेतो हृदये हृदयं मयि अहमृते अमृतं ब्रह्मणि पृथिवी मे शरीरे श्रिताः शरीरगुं हृदये हृदयं मयि अहमृते अमृतं ब्रह्मणि ओषधय वनस्पतयो मे लोमसश्रिताः लोमानि हृदये हृदयं मयि अहमृते अमृतं ब्रह्मणि इन्द्रो मे बले श्रितः बलगुं हृदये हृदयं मयि अहमृते अमृतं ब्रह्मणि पर्जन्यो मे मूर्ध्नि श्रितः मूर्धा हृदये हृदयं मयि अहमृते अमृतं ब्रह्मणि ईशानो मे मन्यौ श्रितः मन्युर्हृदये हृदयं मयि अहमृते अमृतं ब्रह्मणि आत्मा महात्मनि श्रितः आत्मा हृदये हृदयं मयि अहमृते अमृतं ब्रह्मणि पुनर्म आत्मा पुनरायुरगात् पुनः प्राणपुनराकूतं महागात् वैश्वानरो रश्मिभिर्वावृधान अन्तस्तिष्ठत्वमृतस्य गोपाः
अस्य रुद्रस्य प्रश्नस्य अनष्टोच्छन्दस्य अघोरर्हिः अमृतानष्टोच्छन्दः सङ्कर्षणमूर्तिस्वरूपो योऽसावादित्यः परमपुरुष स एष रुद्रो देवता अग्निक्रतुचरमायामिष्टिकायागम् रुद्रजपे विनियोगः सकलस्य रुद्राध्यायस्य परमेष्टे ऋषिः एका गायत्री छन्दः तिस्रो नष्टुभः तिस्रः पङ्क्तयः सप्तानष्टुभो द्वे जगत्यो श्रीरुद्रो देवता समस्तपापक्षयार्थे साम्ब सदाशिवप्रीत्यर्थे जपे विनियोगः ॐ अग्निहोत्रात्मने अङ्गुष्टिकाभ्याम् नमः दर्शपूर्णमासात्मने तर्जनीभ्याम् नमः चातुर्मास्यात्मने मध्यमाभ्याम् नमः निरूढपशुबन्धात्मने अनामिकाभ्याम् नमः ज्योतिष्टोमात्मने कनिष्ठिकाभ्याम् नमः सर्वक्रत्वात्मने करतलकरपृष्टाभ्याम् नमः ॐ अग्निहोत्रात्मने हृदयाय नमः दर्शपूर्णात्मने शिरसे स्वाहा चातुर्मासात्मने शिखायै भूषण निरूढपशुबन्धात्मने कवचाय हुम् ज्योतिष्टोमात्मने नेत्राभ्याम् ओषट सर्वकृत्वात्मने पट ॐ भूर्भुवस्वरोम् इति दिग्बन्धः ध्यानम् ॐ आपातानलभस्तदान्तभुवन ब्रह्माण्डमाविस्फुरत् ज्योतिष्पाटिकलिङ्गमौलिविलसत्पूर्णेन्दुवान्तामृते अस्तोकाप्लुतमेकमेशमनिशम् रुद्रानुवाकाञ्जपन् ज्याये दीप्सितसिद्धये ध्रुवपदम् विप्रोऽभिषिञ्चेच्छिवम् ब्रह्माण्डव्याप्तदेहाभसितहिमरुचा भासमाना भुजङ्गैः कण्ठे कालाकबद्धा कलितशशिकला चण्डकोदण्डहस्ताः त्र्यक्षारुद्राक्षवोषा प्रणतभयहरा शाम्भवा मूर्तिवेदा రుద్రా శ్రీ రుద్ర సూక్త ప్రకటిత విభవాన ప్రయచ్చంతు సౌఖ్యం శుద్ధ స్ఫటిక సంకాశం శుద్ధ విద్యా ప్రదాయకం శుద్ధం సచ్చిచ్చిదానందం సదాశివమహం వదే. ఓం నమో భగవతే రుద్రాయ హరిః. ఓం
నమస్తే
రుద్రమన్యవ ఉతోత ఇషవే నమః. నమస్తే అస్తు ధన్మనే బాహుభ్యాముతతే నమః. యాదయుష శివతమా శివం బభూవతే దనుః. శివాశరవ్యాయాతవతయా నో రుద్రమృడయా. యాతే రుద్ర శివా తనోర్ఘోరా పాపకాశిని. తయానస్తను వాషంతమయా గిరిషంతాభిచాకశీ. యామిషం గిరిషంతహస్తే బిభర్షస్తవే. శివాంగిరిత్రతాంకురుమాహిగుంసే పురుషం జగత్. శివే నవచసా త్వా గిరిషాచ్చావదామసి. యథా నస్సర్వమిజ్జగదయస్మగుంసుమనా అసత్. అద్య వోచద విభక్త ప్రథమో దేవ్యోభిషక్. అహేకృశ్చ సర్వా అంజంభయః సర్వా అంచయాతు ధాన్యః. అసోయస్తామ్రో అరుణహుత వభ్రస్సు మంగళః. ఏచేమాగం రుద్ర అవితో దిక్షశ్రితా సహస్రశో వైశాగం హేడయీమహే. అసో యో వసర్పతి నీలగ్రీవో విలోహితః. ఉదైనం గోప అదృశన్నదృశన్నుదహార్యః. ఉదైనం విశ్వభూతాని సదృష్టో మృణయాతినః. నమో అస్తు నీలగ్రీవాయ సహస్రాక్షాయ మీరుషే. అథో యే అస్య సత్త్వా నోహందేభ్యో కరం నమః. ప్రముంచదన్వనస్త్వముభయో రాత్రిర్యోజ్యాం. యాశ్చ తేహస్త ఇడవః పరాత భగవో వప. అవదత్యదనుస్త్వగం సహస్రాక్షసతేషు తే. నిశీర్య శల్యానాం ముఖా శివో నః సుమనా భవ. విద్యందనుక్కపర్దినో విశల్యో బాణభాగం ఉత. అనేషన్నస్యేషవ ఆపురస్య నిషంగతిః. యాతే హేతిర్మీడుష్టమహస్తే బభూవతే దనుః. తయాస్మాన్ విశ్వతస్త్వమయక్ష్మయా పరిభుజ. నమస్తే అస్త్వాయుధాయాన తతాయ ధృష్ణవే. ఉభాభ్యాముతతే నమో బాహుభ్యాం తవదన్వనే. పరితే దన్వనో హేతిరస్మాన్ ఋణక్తు విశ్వతః. అథో య ఇషుధిస్తవారే అస్మిన్నిధేహితం. ఓం నమస్తే అస్తు భగవన్ విశ్వేశ్వరాయ మహాదేవాయ త్ర్యంబకాయ త్రిపురాంతకాయ త్రికాలాగ్నికాలాయ కాలాగ్నిరుద్రాయ నీలకంఠాయ మృత్యుంజయాయ సర్వేశ్వరాయ సదాశివాయ శ్రీశంకరాయ శ్రీమన్మహాదేవాయ నమః. ఓం నమో హిరణ్యవాహవే సేనాన్యే దిశాంచపతయే నమో నమో. వృక్షేభ్యో హరికేశేభ్య పశూనాం పతయే నమో నమ. సత్పింజరాయ త్రిశీమదేవతీనాం పతయే నమో నమ. బభ్రుషాయ దివ్యాదినాన్నానాం పతయే నమో నమో. హరికేశాయోపవీతినే పుష్టానాం పతయే నమో నమో. భవస్య హేత్యే జగతాం పతయే నమో నమో. రుద్రాయ క్షేత్రాణాం పతయే నమో నమ. సోతాయ హంత్యాయ వనానాం పతయే నమో నమో. రోహితాయ స్థపతయే వృక్షాణాం పతయే నమో నమో. మంత్రిణే వాణిజాయ కక్షాణాం పతయే నమో నమో. భువంతై వారివస్కృతాయోషధీనాం పతయే నమో నమ. ఉచ్చేర్ఘోషాయ క్రందయ దేవతీనాం పతయే నమో నమ. క్రస్తభీతాయ దావతే సత్వనాం పతయే నమః. ఓం నమః సహవానాయ నివ్యాదిన ఆవ్యాదినీనాం పతయే నమో నమః. ఖకుపాయ నిషంగిణే తేనానాం పతయే నమో నమో. నిషంగిణ ఇషుధిమతే తస్కరాణాం పతయే నమో నమో. వంచతే పరివంచతే స్థాయూనాం పతయే నమో నమో. నిచేరవే పరిచరాయారణ్యానాం పతయే నమో నమః. సృకాభ్యోజిగాగం సద్యోముష్టతాం పతయే నమో నమో. శ్రీమద్భ్యోనక్తంచరభ్య ప్రకృందానాం పతయే నమో నమ. ఉష్ణేషిణే గిరిచరాయ కులుంచానాం పతయే namo nama isamadhyo danva vibhyascha vo namo nama atanvane bhya pradidadane bhyascha vo namo nama ayachadhyo visradadhyascha vo namo namo sebhyo vidyadhyascha vo namo nama asine bhyashayane bhyascha vo namo nama svapadhyo jagadhyascha vo namo nama stishtadhyo davadhyascha vo namo nama sabhabhya sabhapadibhyascha vo namo namo ashvebhyo shvapadibhyascha vo namaha Om Namah Vyadinebhyo Vividyantebhyascha Vo Namo Nama Ugarabhyastrakam Hatebhyascha Vo Namo Namo Grasebhyo Grasapadebhyascha Vo Namo Namo Vratebhyo Vratapadebhyascha Vo Namo Namo Ganebhyo Ganapadebhyascha Vo Namo Namo Virupebhyo Vishwarupebhyascha Vo Namo Namo Mahadhyakshullakebhyascha Vo Namo Namo Ratibhyo Ratebhyascha Vo Namo 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 tadebhyo rathapadibhyascha vo namo namasena abhyasena nibhyascha vo namo namakshatrabhyas sangrahetrabhyascha vo namo namastakshabhyo ratakarebhyascha vo namo namakulalebhyo karmarebhyascha vo namo namapunjishtebhyo nishadebhyascha vo namo namaisharvadhyo danvakradhyascha vo namo namamrugayubhyasvanibhyascha vo namo namashvabhyashvapadibhyascha vo namaha Om Namo Bhavaya cha Rudraya cha Namah Sarvaya cha Pashupataye cha Namo Nilagrivaya cha Shritikanthaya cha Namah Kapardine cha Vyuktakeshaya cha Namah Sahasrakshaya cha Shatadhanvane cha Namo Girishaya cha Shibhivittaya cha Namo Menushtamaya cha Shomate cha Namo Rasvaya cha Vamanaya cha Namo Brahate cha Varshiyase cha Namo Vraddaya cha Samvat Dvane cha namo agriyaya cha prathamaya cha nama ashave cha jiraya cha nama shikriyaya cha shibhyaya cha nama urmyaya cha vaswanyaya cha nama srotasyaya cha dipyaya cha Om Namo Ajeshtaya cha Kanishtaya cha Namo Purvajaya cha Parajaya cha Namo Madhyamaya cha Pagalbhaya cha Namo Jaganyaya cha Vuddhiyaya cha Vassobhyaya cha Pratisaryaya cha Namo Yamyaya cha Kshemyaya cha Namo Urvaryaya cha Kalyaya cha Namo Shlokyaya cha Vasanyaya cha Namo Vanyaya cha kakshaya cha nama shravaya cha pratishravaya cha nama asusenaya cha asurathaya cha nama shuraya cha vabindhate cha namo varmine cha varotine cha namo bilmine cha kavachine cha nama shrutaya cha shurasenaya cha Om Namo Dundabhyaya cha Hananyaya cha Namo Drattave cha Prabhrashaya cha Namo Dhotaya cha Prahitaya cha Namo Nishangine cha Shudhimate cha Namaste cha Shave cha Yujine cha Namaswayudaya cha Sudhanvane cha Namasrutyaya cha Patyaya cha Namakatyaya cha Nipyaya cha Namasodhyaya cha Sarasyaya cha Namo Nadyaya cha Vaishantyaya cha Namakopyaya cha Vatyaya cha Namo Varshaya cha Varshaya cha Namo Megyaya cha Vidyatyaya cha Namo Idriyaya cha Tapyaya cha Namo Vatyaya cha Reshmiyaya cha Namo Vastavyaya cha Vastupaya cha Om Namah Somaya cha Rudraya cha Namah Stamraya cha Runaya cha Namah Shangaya cha Vashupataye cha Namah Ugraya cha Bhimaya cha Namo Agre Vadaya cha Dure Vadaya cha Namo Handre cha Haniyase cha Namo Vrunakshebhyo Harikeshebhyo Namastaraya Namah Shambhave cha Mayobhave cha Namah Shankaraya cha Mayaskaraya cha Namah Shivaya cha Shivataraya cha Namah Tirthya cha kulyaya cha namah paryaya cha varyaya cha namah prataranaya chottaranaya cha namah ataryaya cha ladyaya cha namah shashtyaya cha penyaya cha namah sikatyaya cha pravakyaya cha ॐ नम हिरण्याय च प्रपत्याय च नमः किगुंशिलाय च क्षयणाय च नमः कपर्दिने च पुलस्तये च नमो गोष्ठाय च गृह्याय च नमस्तल्प्याय च गेह्याय च नमः काट्याय च गह्वरेष्ठाय च नमो हृदयाय च निवेश्याय च नमः पागुंसव्याय च रजस्याय च नमः शुष्क्याय च हरित्याय च नमो लोप्याय चोलप्याय च नम ऊर्व्याय च सौम्याय च नम पर्णाय च वर्णशज्याय च नमोपगुरमाणाय चाभिघ्नते च नम आखिधते च प्रक्षिधते च नमो वक्किरिकेभ्यो देवानागं हृदयेभ्यो नमो विक्षीणकेभ्यो नमो विचिन्वत्केभ्यो नम अनिर्हतेभ्यो नम आमीवत्केभ्यः ॐ द्रापे अन्धसत्पते दरिद्रन्नीलोहिता येषाम् पुरुषाणामेषाम् वशोनामादेर्मारोमो येषाम् किञ्जनाममत् या ते रुद्रशिवा तनो शिवा विश्वाः भेषजे शिवा रुद्रस्य भेषजे तया नो मृणजीवसे इमागम् रुद्राय तमसे कपर्दिने क्षयद्वीराय प्रभरामहे मतिम् यथा नश्रमसद्विपदे चतुष्पदे विश्वम् भुष्टम् ग्रामे अस्मिन्ननातुरम् मृणानो रुद्रोतनो वयस्कृति क्षयद्वीराय नमसा विधेमते यत्यञ्जयोश्च मनुरायजे पिता ददश्याम तव रुद्रप्रणीतो मानो महान्तमुतमानो अर्भगम् मानवोक्षन्तमुतमानवोक्षितम् मानोऽवधे पितरम् मोद मातरम् प्रियामानस्तनुवो रुद्ररीरिषः मानस्तोकेतन ये मान आयुषि मानो गोषु मानो अश्वेषु रीरिषः वीरान्मानो रुद्रभामितोर्वधिर्हविष्मन्तो नमसा विधेमते आरात्ते गोग्नभुतपोरुषग्ने क्षयद्वीराय सुम्नमस्मेते अस्तु रक्षा च नो अदिच देव भ्रोक्यदा च न शर्म यच्च दिवराः त्विहि श्रुतम् गर्त सदम् युवानम् मृगन्न भीममुपहत्वमुग्रम् मृडा च हित्रे रुद्रस्तवानो अन्यन्ते अस्मिन्निवभन्तु सेनाः परिणो रुद्रस्य हेतिर्वृणक्त परित्रेदस्य दुर्मतिरगायो अवस्थिरामगमद्यस्तनुष्वमेष्वस्तोकायतनयाय मृडया मेडष्टम शिवतम शिवो नः सुमनः भव परमे वृक्ष आयुधम् निधाय कृत्तिम् वसा न आचर पिनाकम् बिभ्रदागहि विगिरिधविलोहित नमस्ते अस्तु भगवः यास्ते सहस्रगम् हेतयोन्यमस्मिन्निवबन्धुता सहस्राणि सहस्रधा बाहुवोस्तव हेतयः तासामीशानो भगवः पदाचीनामुखाकृति सहस्राणि सहस्रशो ये रुद्रादि भूम्याम् तेजागम् सहस्रयोजने वदन्वानि तन्मसे अस्मिन्महत्यर्णवेऽन्तरिक्षे भवादि नीलग्रीवाशिजिकण्ठा शर्वा अदक्षमाचरा नीलग्रीवाशिजिकण्ठादिवगम् रुद्रा उपश्रिता ये वृक्षेषु षट्पिञ्जरा नीलग्रीवा विलोहिता ये भूतानामधिपतयो विधिकासक्कपर्दिनः ये अन्येषु विविद्यन्ति पात्रेषु विपतो जनान् ये पताम् पतिरक्षय ऐलभृदा यव्युदः ये तीर्थानि प्रचरन्ति सुकापन्तो निषङ्गिणः य एतावन्तश्च भूयागुंसश्च दिशो रुद्रावितस्थिरे तेजागम् सहस्रयोजने वदन्वानि तन्मसि नमो रुद्रेभ्यो ये पृथिव्याम् ये एन्तरिक्षे ये दिव्ये शामन्नम् वातो वर्षविधवस्तेभ्यो दश प्राचेर्दश दक्षिणा दश प्रदेशेर्दशो रेचेर्दशोद्वास्तेभ्यो नमस्ते नो मृडयन्तु तेयम् देष्मो यश्च नो द्वेष्टितम् भोजम् भे ददामि नमस्ते रुद्रतम् भोजम् भे ददामि ॐ सर्वो वै रुद्रस्तस्मै रुद्राय नमो अस्तु पुरुषो वै रुद्रस्तन्महो नमो नमः विश्वम् भूतम् भुवनम् चित्रम् बहुधा जातम् जायमानम् जयत् सर्वोर्ख्ये शरुद्रस्तस्मै रुद्राय नमो अस्तु कद्रुद्राय प्रदेतसे मेदुष्टमाय दव्यसे ओजे मषन्तमृणे सर्वोर्ख्ये शरुद्रस्तस्मै रुद्राय नमो अस्तु त्र्यम्बकम् यजामहे सुगन्धिम् पुष्टिवर्धनम् उर्वारुकमिव बन्धनान् मृत्योर्वक्षेयमामृतात् येष ते रुद्रभागस्तम् जुषस्वतेन वसेन परो मोजवतो दीक्ष्यवतदन्वापि न कहस्तकृत्तिवासाः रथगम् सत्यम्बरम् ब्रह्मण पुरुषम् कृष्णपिङ्गलम् ओर्ध्वरेतम् विरोपाक्षम् विश्वरूपाय वै नमो नमः ओ नमो हिरण्यबाहवे हिरण्यवर्णाय हिरण्यरूपाय हिरण्यपतयेऽम्बिकापतय उमापतये पशुपतये नमो नमः सद्यो जातम् प्रपद्यामि सद्यो जाताय वै नमो नमः भवे भवे नाति भवे भवस्व माम् भवोद्भवाय नमः वामदेवाय नमो ज्येष्ठाय नमः श्रेष्ठाय नमो रुद्राय नमः कालाय नमः कलविकरणाय नमो बलविकरणाय नमो बलाय नमो बलप्रवसनाय नमः सर्वभूतदमनाय नमो नरोन्मनाय नमः अघोरे एभ्यो तघोरे एभ्यो घोरघोरतरेभ्यः सर्वे एभ्यः सर्व सर्वे एभ्यो नमस्ते अस्तु रुद्ररूपेभ्यः तत्पुरुषाय विद्महे महादेवाय धीमहि तन्नो रुद्र प्रचोदयात् ईशानः सर्वविद्यानामीश्वरः सर्वभूतानाम् ब्रह्माधिपति ब्रह्मणोऽधिपति ब्रह्मा शिवो मे अस्तु सदा शिवो